यसा रेडियो नेपाल सम्प्रति समाचार श्रीयन्ताम प्रवाचक रामहरि दाल प्रधानमन्त्री केपी शर्मा ओली सर्वकार संचार स्वतन्त्रता मानवाधिकारांश प्रति दृढोस्तीति कारणात् तत्र न शंकितुम अनुरोधी नय क्षेत्रस्य विभिन्नानां संचार माध्यमानां सम्पादकै सह प्रधानमन्त्री निवासे बालवतारस्थाने गत सायं विहिते विमर्शने प्रधानमन्त्री ओली सर्वकारस्य पक्षतः संचार स्वतन्त्रता विरोधिनी कस्मिंचित कार्ये सम्भूते तत् संशोधयितुं तत्परतास्तीति अवोचदिति प्रधानमन्त्रिणः संचार परामर्शदाता सूर्य थापा अज्ञापयत् प्रधानमन्त्री ओली सर्वकारं सहयोक्तुं सम्पादकान् अनुरन्धानः एमसीसी नामक मिलेनियम च्यालेञ्ज कर्पोरेशन प्रस्ताव शीतकालिकाधिवेशन पारिती करिष्यते इत्यभाषत प्रधानमन्त्री ओली सम्पादकै सह राष्ट्रस्य राजनीतेः सामयिकावस्थाश्च विषयोरपि व्यवृशदिति संचार परामर्शदाता थापा अबोधयत् प्रधानमन्त्री ओली आत्मना इदानीं वृक्कस्य डायलोसिस उपचार प्रक्रिया विधीयमाना वर्तते इति भाषमाणः शीघ्रं वृक्क प्रत्यारोपणं विधास्यते चेति अज्ञापयत् प्रधानमन्त्रिणा ओलिना आत्मना अतः परमपि त्रिवर्षावधि सर्वकारस्य नेतृत्वं विधास्यते इति उक्तमिति संचार परामर्शदाता थापा ज्ञापितवान् प्रधानमन्त्री केपी शर्मा ओली गतदिने सारंगी साँझ नामधेय कार्यक्रमे सहभागी अभवत् प्रधानमन्त्री निवासे बालवाटारस्थाने मनन भण्डारी कला साहित्य प्रतिष्ठानस्य नेपाल संगीत नाट्य प्रतिष्ठानस्य च सहकारी आयोजिते तस्मिन् नेपाली मौलिक वाद्योपकरणानां ध्वनिनां च सारंगी साँझ नामधेय कार्यक्रमे प्रधानमन्त्री ओली सहभागी अभवत् स्वास्थ्य जनसंख्या मन्त्री भानुभक्त ढकाल कथयति चीनदेशे स्थितानां नेपाली विद्यार्थीनां प्रत्यावर्तनस्य विषये सर्वकार सचेष्टो वर्तते एतदर्थं आवश्यक पूर्व कार्याणि विधीयमानाञ्च सन्ति प्रतिनिधिसभाया यस्तनोपवेशे चीनदेशात् प्रसृतस्य नोभेल कोरोना जीवाणुनां संक्रमणस्य सार्वजनिक प्रयोजनस्य विषये भाषमाणः मन्त्री ढकाल चीनदेशस्थितात् नेपाली दूतावासात् नेपाली विद्यार्थीनां प्रत्यावर्तनस्य सम्बन्धे कार्याणि विधीयमानानि सन्ति अनुसन्धानस्य च पश्चात् एते नेपालम् आनयिष्यन्ति इति अज्ञापयत् मन्त्री ढकाल अद्यावधि नेपालस्य शंकास्पदेषु त्रयोदश जनेषु परीक्षणं विहितं परन्तु संक्रमणं न दृष्टमिति ज्ञापयन् नेपाल सर्वकार विषयेऽस्मिन् पूर्ण सन्नद्धतया सचेष्टो वर्तते इत्यवोचत् मन्त्री ढकाल अवोचत् सर्वकारेण कोरोना जीवाणुनां संक्रमणस्य उपचाराय चिकित्सालयत्रयं त्रिचत्वारिंशत् शय्याश्च व्यवस्थापिताः सन्ति मन्त्री ढकाल स्वास्थ्य मन्त्रालयस्य अन्तर्गतं त्रिशत शय्यायुत चिकित्सालयस्य निर्माणाय सर्वकार तत्परो वर्तते इत्यज्ञापयत् तत्पूर्वं प्रतिनिधिसभाया ह्यस्तनोपवेशे सांसदैः कोरोना जीवाणुनां संक्रमणस्य नियन्त्रणाय अवलम्बिताया सचेतताया चीनदेशे स्थितानां नेपाली विद्यार्थीनां प्रत्यावर्तनस्य सम्बन्धे विधीयमानानां पूर्वकार्याणां विषयेषु सर्वकारस्य ध्यानम् आकृष्टम् आसीत् प्रतिनिधिसभाया ह्यस्तनोपवेशे महिला सामाजिक समिति सभापति निरुदेवी पाल ज्येष्ठ नारीक प्रथम संशोधन विधेयक सम्बद्धं समिते एतद् विक्रमाब्दीयं प्रतिवेदनं प्रास्तौत् उपवेशे शिक्षा स्वास्थ्य समिति सभापति जयपुरी घरती एतद् विक्रमाब्दीयं पारमाणविक विधेयक सम्बद्धं समिते प्रतिवेदनं प्रस्तुतवती एवमेव उपवेशे अर्थमन्त्रिणा डा युवराज खतुरा विदेन एतद् विक्रमाब्दीयानि सार्वजनिक ऋण व्यवस्थापन विधेयकं कोषागारीय वित्तीय संस्था सम्बद्धं प्रथम संशोधन विधेयकं नेपाल राष्ट्र कोषागारीय तृतीय संशोधन विधेयकं न्यासपत्र सम्बद्धं प्रथम संशोधन विधेयकञ्च प्रस्तुतानि प्रतिनिधिसभाया अप्रोपवेश श्वः त्रयोविंशे दिवसे दिवा एकवादने बस्ता प्रधानमन्त्री नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षः केपी शर्मा ओली भाषते नेकपा दलेन विना न केनापि न्याय समानता समृद्धिनां कृते उद्देश्यमूलकानि कार्याणि विधातुं पार्यन्ते अखिल नेपाल महिला संघस्य एकता घोषणाया केन्द्रीय समिति पदाधिकारिणां शपथ ग्रहणस्य च समारोहे ह्यः प्रधानमन्त्री ओली अभाषत सर्वकारेण विकास मन्त्रालयोः गतिः प्रदत्तास्थिति कारणेन आगामिनि निर्वाचने द्वितृतीयांशं बहुमतम् आनेतुं नेकपा दलं न केनापि रोद्धुं शक्ष्यते परराष्ट्र मन्त्री प्रदीप कुमार गिमाली गदति एमसीसी प्रस्तावस्य विरूद्धे बहिरागतो विषयः अनावश्यकः अतिरञ्जितः प्रायोजितस्त वर्तते सर्वकारेण देशजनतयोः हितं केन्द्रबिन्दौ निधाय विश्वेषौ उत्थापितो स्थिति चार्चन् असौ अवोचत् आपणे अनावश्यक विषयं विमृश्य मित्रराष्ट्रेण सह विद्यमान सम्बन्धः केनापि तिक्तो न विधातव्यः यो गृह गुल्मी जनपदं प्राप्तः परराष्ट्रमन्त्री गेवाली राष्ट्रिय हितं जनताया लाभः देशस्य विकासश्च यत्र भवन्ति सर्वकारः तत्रैव अग्रे प्रवर्धते इति व्याहरन् एमसीसी प्रस्तावस्य विषये अनभिज्ञातैर्जनैः एतस्य विरूद्धे आपणे विमर्शनं प्रारब्धम् अस्तीति टिप्पणीम् अकरोत् प्रमुख प्रतिपक्षण नेपाली कांग्रेस दलेन प्रतिनिधि सभायां वृत्तिपादनस्य दीर्घकालिक प्रबन्ध सम्बद्धः अत्यावश्यक सार्वजनिक महत्वस्य प्रस्तावः यः पञ्जीकारितो वर्तते। राष्ट्रस्य अभ्यन्तरे वृत्तिपादनस्य सम्भावनाम् अन्विष्य दीर्घकालिकं प्रबन्धं प्रति सर्वकारेण सक्रियेण भाव्यमिति ज्ञापयता। कांग्रेस दलेन श्रम वृत्तिपादन सामाजिक सुरक्षा मन्त्रालयसँग सम्बद्धः प्रस्तावोऽसौ संसदि पञ्जीकारितो वर्तते। नेपाली कांग्रेस दलस्य केन्द्रीय सदस्य प्रकाशमान सिंह भाषते दलस्य आभ्यन्तरिकं विवादं समाधातुं निर्धारित समये चतुर्दशं महाधिवेशनं सम्पादनीयम्। नेपाल प्रेस युनियन संघस्य पर्सा शाखाया ह्यौ वीरगंज स्थाने आयोजिते पत्रकार सम्मेलने नेता सिंह दलीय विधानस्य अनुसारेण महाधिवेशने सम्पादिते दलस्य आभ्यन्तरिका समूहोपसमूहा समाप्स्यन्ति इति विश्वासं व्यक्तवान्। अधिकार दुरूपयोगादुसन्धान योगेन सिराहा जनपदस्य लाहन वर्तिनो मार्ग महाशाखा कार्यालयस्य निमित्त महाशाखा प्रमुखेण विनोद साहेन सहितानाम् अभियन्तुः नमीर कुमार शाहस्य सहायकाभियन्तुः वीरेन्द्र कुमार शाहस्य च विरूद्धे भ्रष्टाचारस्य न्यायिक प्रकरणं पञ्जीकारितं वर्तते। रूपनी राजविराज कुनौली मार्गायोजनायाः निर्माणस्य अन्तिम व्यय प्रपत्र समञ्जनस्य क्रमे जनत्रयेणैव अष्टाश लक्षाणां सन्नमते सहस्राणां च रूप्यकाणां उत्कोचो गृहीत इति पुष्टि सम्भूतास्तीति कारणेन जनत्रयस्यैव विरूद्धे गतदिने काष्ठमण्डप वर्तिनी विशेष न्यायालये न्यायिक प्रकरणं पञ्जीकारितम् अस्तीति आयोगेन ज्ञापितमस्ति इति समाचारः।